अथ लिङ्गादिसङ्ग्रहवर्गः सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः अनुक्तैः सङ्ग्रहे लिङ्गम् सङ्कीर्णवदिहोन्नयेत् लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः स्त्रियामीदूद्विरामैकाच् स योनिप्राणिनाम च नामविद्युन्निशावल्ली वीणादिभूनदीह्रियाम् अदन्तैर्द्विगुरेकार्थः न सपात्रयुगादिभिः तल्वृन्दे ये निकट्यत्र वैरमैथुनिकादिवुन् स्त्रीभावादावनिक्तिण्वुल् नच्नुल् ह्यप्युञिञङ्निषाः उणादिषु निरूरीश्च ज्ञाबूङन्तम् चलम् स्थिरम् तत्क्रीडायाम् प्रहरणम् चेन्मौष्टापाल्लवाणदिक् घञोऽन्यः सा क्रिया स्याञ्चेत् दाण्डपाता हि फाल्गुनी श्यैनम् पाता च मृगया तैलम् पाता स्वधेति दिक् स्त्री स्यात् काचिन्मृणाल्यादिः विवक्षापचये यदि लङ्काशेफालिका टीका धातकी पञ्जिकाठकी सिद्ध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका तिन्दुकी कणिका भङ्गिः सुरङ्गा सूचिमाढयः पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणीदरत् सातिः कन्था तथा सन्धी नाभीराजसभापि च झल्लरी चर्चरी पारी होरालट्वा च सिद्ध्मला लाक्षालिक्षा च गण्डूषा गृध्रसी चमसी मसी पुंस्त्वे सभेदानुचराः सपर्याया सुरासुराः स्वर्गयागाद्रिमेघाब्धि द्रुकालासि शरारयः करगण्डोष्ठदोर्दन्त कण्ठकेशनखस्तनाः अह्नाहान्ताः क्ष्वेडभेदाः रात्रान्ताः प्रागसङ्ख्यकाः श्रीवेष्टाद्याश्च निर्यासाः असन्नन्ता अबाधिताः कशेरुजतु वस्तूनि हित्वा तुरुविरामकाः कषणभमरोपान्ताः यद्यदन्ता अमी अथ पथनयसटोपान्ताः गोत्राख्याश्चरणाह्वयाः नाम्यकर्तरि भावे च घञजप्नङ्नघाथुचः ल्युःकर्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः द्वन्द्वेष्ववडवावश्ववडवा न समाहृते कान्तः सूर्येन्दुपर्याय पूर्वो यः पूर्वकोऽपि च वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः पुङ्खोऽन्योङ्खः समुद्गश्च विटपट्टधटाः खटः कोट्टारघट्टहट्टाश्च पिण्डगोण्डपि चण्डवत् गडुः करण्डोलगुडः वरण्डश्च किणो घुणः धृतिसीमन्तहरितः रोमन्थोत्कीथबुद्बुदाः कासमर्दोर्बुदः कुन्दः फेनस्तूपौ सयूपकौ आतपः क्षत्रियेनाभिः गुणपक्षुरकेदराः पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः वेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः कुल्माशोरभसश्चैव सकटाहः पतद्ग्रहः द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् शीतोष्णमां सरुधिर मुखाक्षिद्रविणं बलं फलहेम शुल्बलोह सुखदुःख शुभाशुभं जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनं कोट्याशतादिसङ्ख्यान्या वालक्षानियुतं च तत् द्व्यच्कमसि सुसन्नन्तम् यदनान्तमकर्तरी त्रान्तम् सलोपधम् शिष्टम् रात्रम् प्राक् सङ्ख्ययान्वितम् पात्राद्यदन्तैरेकार्थः द्विगुर्लक्ष्यानुसारतः द्वन्द्वैकत्वाव्ययीभावौ पथःसङ्ख्याव्ययात् परः षष्ठ्याश्छाया बहूनां चेत् विच्छायं संहतौ सभा शालार्थापि परा राजा मनुष्यार्थादराजकात् दासीसभं नृपसभं रक्षःसभमिमादिशः उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने कोपज्ञकोपक्रमादि कंथोशीनर नामसो भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः अदन्तप्रत्ययाः पुण्यसुदिनाभ्याम् त्वहः परः क्रियाव्ययानाम् भेदकान्येकत्वे युक्ततोटके चोचम् पिच्छम् गृहस्थूणम् किरीटम् मर्मयोजनम् राजसूयम् वाजपेयम् गद्यपद्ये कृतौ कवेः माणिक्यभाष्यसिन्दूर चीर चीवरपिञ्जरम् लोकायतम् हरितालम् विदलस्थालबाह्लिकम् पुन्नपुंसकयोः शेषः अर्धर्चपिण्याककण्टकाः मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोर्बुदः पातकोद्योगचरक तमालामलकानडः कुष्टम् मुण्डम् शीधुबुस्तम् क्ष्वेडितम् क्षेमकुट्टिमम् सङ्गमम् शतमानार्म शम्बलाव्ययताण्डवम् कवियम् कन्दकार्पासम् पारावारम् युगन्धरम् यूपम् प्रग्रीवपात्रीवे यूषम् चमसचिक्कसौ अर्धर्चादौ घृतादीनाम् पुंस्त्वाद्यम् वैदिकम् ध्रुवम् तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् स्त्रीपुंसयोरपत्यान्ताः द्विचतुष्षट्पदोरगाः जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ऊर्मिर्वराटकः स्वातिः वर्णको झाटलिर्मनुः मूषासृपाटी कर्कन्धोः यष्टिशाटी कटीकुटी स्त्रीनपुंसकयोर्भावक्रिययोः श्यञ् क्वचिच्च वुञ् औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः षष्ठ्यन्तप्राक्पदास्सेना छायाशालासुरानिशाः स्याद्वा नृसेनं श्वनिशम् गोशालमितरे च दिक् आबन्नन्तोत्तरपदः द्विगुश्चापुंसिनश्च लुप् त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् अर्थान्ताः प्राद्यलं प्राप्तापन्नपूर्वाः परोपगाः तद्धितार्थो द्विगुःसङ्ख्या सर्वनाम तदन्तकाः बहुव्रीहिरिदिङ्नाम्ना मुन्नेयम् तदुदाहृतम् गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः கிருதக் கர்த்தர் யசஞ்ஞாயாம் கிருத்யாக் கர்த்தரி கர்மணி அநாத்யந்தாஸ்தேன ரக்தாத்யர்த்தே நானார்த்தபேதகாஹ ஷட்சம்ஞகாஸ்த்ரிஷு சமாஹ யுஷ்மதஸ்மத்திங்கவ்யயம் பரம் விரோதேசேஷந்தோ ஞேயம் சிஷ்டப்ரயோகதஃ. இதி லிங்காதி சங்கிரஹ வர்கஹ. இத்யமர சிம்ஹ க்ருதௌ நாம லிங்கானுஷாஸனே சாமான்ய காண்டஸ்த்ருதீயஹ சாங்க ஏவ சமர்த்திதஹ.